अथ कैवल्याष्टकम् मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलं पावनं पावनेभ्योऽपि हरिर्नामैव केवलम् आब्रह्मस्तम्भपर्यन्तं सर्वं मायामयं जगत् सत्यं सत्यं पुनः सत्यं हरिर्नामैव केवलं स गुरुः स पिता चापि सा माता बान्धवोऽपि स शिक्षयेच्चेत् सदा स्मर्तुं हरिर्नामैव केवलं निःश्वासेन हि विश्वास कदा रुद्धो भविष्यति कीर्तनीयमतो बाल्याधरिर्नामैव केवलं हरिस्सदा वसेत्तत्र यत्र भागवता जनाः गायन्ति भक्तिभावेन हरिर्नामैव केवलम् अहो दुःखं महादुःखं दुःखादुःखतरं यतः काचार्थं विस्मृतं रत्नं हरिर्नामैव केवलं दीयतां दीयतां कर्णो नीयतां नीयतां वचः गीयतां गीयतां नित्यं हरिर्नामैव केवलं तृणीकृत्य जगत्सर्वं राजते सकलोपरि चिदानन्दमयं शुद्धं हरिर्नामैव केवलम् इति कैवल्याष्टकं सम्पूर्णम्।